सर्वेभ्यो नमः। गतवर्गे तत् किञ्चित् समयपूर्वम् आसीत्। तस्मिन् समये वयं किं कृतवन्तः इत्युक्ते ल्यप्रत्ययस्य अभ्यासं कृतवन्तः। तत्र उपसर्गरहितक्रियापदमस्ति चेत्, उदाहरणार्थं नयति अस्ति चेत्, तत्र क्त्वान्तरूपं भवति नीत्वा इति, अथवा गच्छति अस्ति चेत् गत्वा इति भवति। किन्तु उपसर्ग अस्ति चेत्, उपसर्गसहितक्रियापदम् अस्ति चेत्, तत्र गच्छति इति स्थाने आगच्छति, तत्र आ इति उपसर्ग अस्ति चेत् तत्र त्वान्तरूपं नास्ति, किन्तु ल्यबन्तरूपम् इति ल्यप्रत्ययस्य योजनेन ल्यबन्तरूपं तस्य निर्माणं भवति। तत्र आगच्छति इति क्रियापदस्य ल्यबन्तरूपं भवति आगत्य इति। आनयति, तत्रापि आ इति उपसर्ग अस्ति इति कृत्वा तत्र क्त्वान्तरूपं नास्ति, ल्यबन्तरूपम् एव अस्ति। तत्र आनीय इति अस्ति। तत्र वयं दृष्टवन्तः तत्र कोष्टके पुटसङ्ख्या 135 मध्ये तत्र उदाहरणानि दत्तानि सन्ति। क्त्वान्तरूपं, तत्र उपसर्गरहितक्रियापदम्, अपि उपसर्गसहितक्रियापदस्य ल्यबन्तरूपं तत्र दत्तमस्ति। हा, इदानीं तत्र बहु किमपि कृतवन्तः, किन्तु तत्र एकवारं तत्र अन्यपि तत्र किञ्चित् वदन्तु तत्र उपसर्ग। अस्तु, तर्हि तत्र अभ्यासं कुर्मः, तत्र पश्यामः किं किं भवति इति। हा, बालचेतनी महोदय नमस्कारः।
हरि ओं महोदय, शुभोदयं, शुभरात्रि महोदय, क्षम्यतां,
चिन्ता मास्तु महोदय। अत्र वयं पुटसङ्ख्या 138 मध्ये स्मः इदानीं, ल्यबन्तरूपम् इति प्रवर्तमानविषयः। तत्र अभ्यास अस्ति पुटसङ्ख्या 138 मध्ये, चतुर्थ अभ्यासः। तत्र रघुपति महोदय प्रथमं तत्र अभ्यासं पठित्वा प्रथमं करोति वा?
हा महोदय, 138 मध्ये अस्ति किल, अस्तु। तत्तत् सङ्ख्याकं गीतश्लोकं परिशील्य आवरणे स्थितस्य धातोः त्वान्तेन लेबन्तेन वा रूपेण रिक्तस्थानानि पूरयत। अस्तु, दुर्योधनः आचार्यं वचनम् अब्रवीत्, अत्र उपासी अतः उप इति उपसर्ग अस्ति, उपयोगः संयोगः गम् धातु अस्ति, अतः उपसङ्गम्य इति भवति।
उपसर्गद्वयमस्ति, तत्रापि लेबन्तरूपमेव। समीचीनं महोदय, तत्र उपसङ्गम्य इति, समीचीनं। अग्रे नरेश महोदय द्वितीयं।
महोदय, केशवस्य वचनं किरीटि भीतवान् अस्ति, श्रुत्वा केशवस्य वचनं श्रुत्वा किरीटि भीतवान्।
तत्र किमर्थं श्रुत्वा त्वान्तरूपं? तत्र
उपसर्ग नास्ति,
उपसर्ग नास्ति इति कृत्वा तत्र त्वान्तरूपमेव समीचीनं। सूर्यकुमारी भगिनी अग्रे तृतीयं।
अहं वैश्वानरः, चतुर्विधम् अन्नं पचामि। अहं वैश्वानरः भूत्वा चतुर्विधम् अन्नं पचामि।
समीचीनं भगिनि, समीचीनं। तत्र भूत्वा इति, तत्र उपसर्ग अस्ति वा?
नास्ति,
अतः त्वान्तरूपं। समीचीनं, भानुचेतनी महोदय तत्र पञ्चमम्।
महोदय प्रश्नः महोदय मया गतः त्वान्तरूपम् अस्ति यदि
उपसर्ग नास्ति चेत् त्वान्तरूपम् गच्छति गत्वा
महोदय उपसर्ग अस्ति चेत् लबन्तरूपम्
लबन्तरूपम् हा तावदेव गच्छति गत्वा आगच्छति आगत्य इति
भीष्मः सिंहनादं वियोगः नद् शङ्खम् अधमत् भीष्मः सिंहनादं विनद्य शङ्खम् अधमत् महोदय
हा समीचीनं महोदय बहु समीचीनं हा समीचीनं हा अस्तु अग्रे रघुपतिमहोदय
अस्तु तत् अमृतत्वम् अश्नोति इति अस्ति ज्ञा धातुः अस्ति अतः त्वान्तरूपमेव ज्ञात्वा तत् ज्ञात्वा अमृतत्वम् अश्नोति
अश्नुते समीचीनं महोदय हा अग्रे नरेश महोदय
रजसि कलयं कर्मसि सङ्गिषु जायते गम् धातुः अस्ति उपसर्गः नास्ति तदा गत्वा रजसि कलयं गत्वा कर्मसङ्गिषु जायते
समीचीनं महोदय सूर्यकुमारी भगिनी अग्रे
गोविन्दं तूष्णीं बभूव गोविन्दं पृष्ट्वा
न तत्र वच् इति अस्ति वच् इति वच्चेव अस्ति
सम्प्रसारणस्य उ
न तत्र वज् वच् धातुः अस्ति तत्र उक्त्वा इति अस्ति वच् वच् धातुः तत्र उपसर्गः नास्ति तद् भवति उक्त्वा इति
उक्त्वा
इति रूपं तत्र भवति हा समीचीनं भगिनी अस्तु अग्रे भानुचित्र महोदय
दुर्योधनः पाण्डवानेकं द्रोणम् अब्रवीत् तत्र उपसर्गः नास्ति महोदय अतः त्वान्तपदमेव तत्र समीचीनं
सत्यं सत्यम्
अतः दुर्योधनः पाण्डवानेकं दृष्ट्वा द्रोणम् अब्रवीत्
पाण्डवानेकम् इत्युक्ते
आनेकम् इत्युक्ते सैन्यं महोदय पाण्डवानेकं पाण्डवोः सैन्यं
पाण्डवस्य तु एकवचनं पाण्डवानां सैन्यं सैन्यं समीचीनं महोदय रघुपतिमहोदय अग्रे
भीष्मः शङ्खं ध्मात्वा मात्र किमपि अन्यत् अस्ति वा ध्मात्वा
हर्षं जनयति
ध्मात्वा ध्मात्वा अस्तु ध्मात्वा हर्षं जनयति
ध्मात्वा समीचीनं महोदय शङ्खनादं कृत्वा इति अस्तु नरेश महोदय अग्रे
माधवः स्यन्दने पञ्चजन्यम् अधमत् ष्ठा धातु उपसर्गः नास्ति अतः
स्थित्वा
माधवः स्यन्दने स्थित्वा पञ्चजन्यम् अधमत्
अधमत् समीचीनं महोदय सूर्यकुमारी भगिनी अग्रे
योधाः प्राणान् युद्धार्थम् अवस्थिताः योधाः प्राणान् त्यक्त्वा
समीचीनं भगिनि. योद्धाः प्राणान् त्यक्त्वा युद्धार्थम् अवस्थिताः. समीचीनं भगिनि. भानुसुधीन महोदय अग्रे.
वयं स्वजनं सुखिनः न भवामः, हन् धातुः अस्ति तत्र. हत्वा महोदय, त्वान्तिकमेव तत्
सत्यं.
वयं स्वजनं हत्वा सुखिनः न भवामः.
सत्यं. रघुपति महोदय अग्रे.
अर्जुनः स्वधर्ममपि स्वधर्ममपि च अवयोग ईक्ष न विकम्पितुमर्हसि. अत्र लेबन्तरूपम् अस्ति, किमस्ति अव उपसर्ग अस्ति, अवयोग इ अत्र गुणसन्धि भवति. अवेक्ष्य
अवेक्ष्य
न विकम्पितुम् अर्हसि.
न विकम्पितुम् अर्हसि. समीचीनं महोदय. नरेश महोदय अग्रे. अवेक्ष्य सत्यं भगिनि. तदेव रूपं.
मनीषिणः कर्मफलम् अनामयं पदं गच्छन्ति. त्यज् धातु उपसर्ग नास्ति, अतः त्यक्त्वा. मनीषिणः कर्मफलं त्यक्त्वा अनामयं पदं गच्छन्ति.
तत्र मनीषी मनीषिणः इति तत् पदस्य वचनं किम्?
मनीषिणः बहुवचनमस्ति.
गच्छन्ति
बहुवचनमस्ति.
गच्छन्ति गच्छन्ति. मनीषिणः
मनीषिन् महोदय तत्र
तादृशरूपं. सत्यं महोदय. मनीषी प्रायशः एकवचने मनीषी इति भवति इति मन्ये.
मनीषिणः इत्युक्ते
मनुष्यः. मनुष्याः. मनुष्याः अत्र बहुवचने. मानवाः. मानवाः. अस्तु अग्रे सूर्यकुमारी भगिनि.
लब्ध्वा परां शान्तिम् अधिगच्छति.
समीचीनं भगिनि. तत्र किमर्थं त्वान्त अस्ति? किमर्थं त्वा इति अस्ति? ल्यप् यप् यकारः नास्ति तत्र.
उपसर्गः नास्ति.
उपसर्गः नास्ति इति कृत्वा लब्ध्वा इति रूपं भवति. समीचीनं. अस्तु अन्तिमं तत्र भानुचित्रं महोदय.
महोदय एकः संशयः अस्ति महोदय. श्रद्धावान् ज्ञानं लभ्य परां शान्तिम् अधिगच्छति इति किमर्थं न वदनीयं महोदय?
तत्र लभ्य इति तत्र
उपलभ्यते एव
उपलभ्य इति अस्ति. उपलभ्य इति तत्तु तत्र उप इति उपसर्ग अस्ति.
लभ्यते इति भवति तत्र
नियमः वा महोदय? किमर्थं
तत्र उपसर्गरहित धातुः अस्ति लब् धातुः? अतः केवलं क्त्वान्तरूपमेव
महोदय. प्रयोगं किमर्थं कुर्वन्ति महोदय?
कीदृशप्रयोगं?
लेबन्त लेबन्तरूपम्.
तत्र उपसर्ग अस्ति चेत् लेबन्तरूपं. तत्र लभ्य इति लभ्य इति तत्र यदि कोऽपि तद् वदति तत्र प्रायशः असाधुरूपम् इति वदन्ति इति मन्ये.
असाधु सत्यं महोदय. मया क्षेमस्ति महोदय, किमर्थं लबन्तप्रयोगं कुर्वन्ति इति.
लत्प्रत्यय न स्वीकरोति उपसर्गरहित धातु धातूनां. न स्वीकरोति इति सूत्रमेव अस्ति अहं चिन्तयामि. अतः एव वयं कुत्रापि न दृष्टवन्तः.
अत्र सर्वत्र पाणिनेः सूत्रम् अस्ति महोदय. तत्र कस्य प्रत्यय प्रत्ययस्य योजनं केन अन्येन किं पदेन भवति, कुत्र भवति, कुत्र न भवति इति पाणिनेः सूत्रमस्ति. तं सूत्रम् अनुसृत्य एतद् रूपं करणीयम् इति.
सत्यम्. अहं सूत्रं न पृच्छामि महोदय, अहं पृच्छामि एतत् लेबन्त प्रत्ययान्तरूपं किमर्थं प्रयोगं कुर्वन्ति.
किमर्थम्
जानामि,
किमर्थं सर्वं त्वान्त त्वान्तरूपम् एव किमर्थं नास्ति इति वा?
न न न, तत् तत्तु समीचीनमेव महोदय. वदति उपसर्गरहितं चेत् त्वान्तरूपं प्रयोगं प्रयोजनीयम्, उपसर्गसहितं चेत् लेबन्तरूपम् इति अहं जानामि
इदानीं.
किन्तु तस्य प्रयोजनं किम्?
ओ अस्तु अस्तु अस्तु, लेबन्तरूपम् अस्तु
प्रयोगम्.
हा अस्तु, तत्र अस्तु. इदानीं तस्य प्रयोगस्य कस्मिन् सन्दर्भे एतत् प्रयोगं कुर्मः तदेव दत्त. एतानि वाक्यानि उदाहरणानि सन्ति खलु तत्र. तत्र अत्र पश्यतु, अहं गृहम् आगच्छामि, आगत्य पाठं पठामि. अत्र कार्यं त्वान्तरूपस्य यादृशं त्वान्तरूपम् अस्ति तादृशमेव लेबन्तरूपम् अपि अस्ति. सः एव प्रयोगः. अहं पाठशालां
गत्वा अपि अस्ति वा महोदय, नास्ति वा महोदय?
किं महोदय? नास्ति. आगत्वा इति अर्थे आगत्य इति अस्ति.
प्रयोगः तादृश एव. अतः वय तत्र एकमस्ति न वैयाकरणः प्रयोगशरणः किमपि अस्ति किल. अतः तत्र प्रयोगः अस्ति तदेव.
भवतः प्रश्नः अस्ति अत्र ल्यबन्तरूपं तस्य प्रयोगः कः इत्युक्ते उपसर्गरहितस्य क्रियापदस्य त्वान्तरूपस्य प्रयोगः यः अस्ति तादृशः एव प्रयोगः अत्र उपसर्गसहितक्रियापदस्य ल्यबन्तरूपस्य. पाठशालां गत्वा इति वदामः, किन्तु गृहम् आगत्य इति वदामः. गृहम् आगत्वा इति न वदामः, अपि पाठशालां पाठशालात् गृहम् आगत्य अथवा पाठशालां गत्य अपि न वदामः. पाठशालां गत्वा इति एव गत्वा एव, गत्या नास्ति, आगत्वा नास्ति, आगत्य एव अस्ति.
अहं चिन्तयामि भानुमहोदयस्य महोदयस्य अभिप्रायं किमर्थं लभ्य इति न भवति इति. तत्र प्रयोगः तत् एतादृश एव अस्ति अतः एव लोके यत्र प्रयोगः तादृशप्रयोगः नास्ति तत्र वयं न कर्तुं शक्यः.
ओ रघुपति महोदय, भवान् एतद् वक्तुम् इच्छति वा? इत्युक्ते तत्र लोके यः प्रयोगाः आसन् आसन् तान् प्रयोगान् दृष्ट्वा एव व्याकरणं रचितं न विपरीतत्वेन इति. पाणिनि सत्यं महोदय, तद् एतद् मयापि श्रुतं. तत्र पाणिनिः सूत्राणि रचितवान्, तत्र जनाः भाषा कीदृशम् अस्ति इति श्रुत्वा अस्तु जनाः एतान् नियमान् अनुसरन्ति, अनेकाः नियमाः सन्ति तत्र, किन्तु तत्सर्वं मिलित्वा तत्र कस्य नियमस्य अनन्तरं कः नियमः भवति इति तत्र क्रमः कृत्वा यदि एषाः नियमाः स्वीकुर्मः तर्हि अन्याः नियमाः तत्र ताभ्यां न तेभ्यः सर्वे नियमाः वयं ज्ञातुं शक्नुमः इति अवगन्तुं शक्नुमः इति तादृश किन्तु रघुपतिमहोदय यत् उक्तवान् तत्तु समीचीनमस्ति तत्र लोके एतदेव अस्ति लभ्य इति प्रयोगः नासीत् इति कृत्वा तत्र ल्यबन्तरूपम् इति त्वान्तरूपमपि ल्यबन्तरूपं पाणिनेः समीचीनं वा महोदय इदानीं
समीचीनं महोदय अर्जुनः हृदयस्थम् अज्ञानजं संशयं छिद् उत्तिष्ठ अर्जुन हृदयस्थम् अज्ञानजं संशयं छित्त्वा उत्तिष्ठ
तत्र हृदयस्थम् इत्युक्ते हृदये
हृदयान्तर यदस्ति तत्
तत्र अज्ञानजम् अज्ञानेन यद् यस्य जननं भवति तं संशयं
जायते अज्ञानेन जायते तत्
तं संशयं चित्वा उत्तिष्ठ अस्तु समीचीनं महोदय अस्तु अस्तु इदानीम् अग्रे तत्र नरेश महोदय अग्रिमम् अभ्यासं पठित्वा प्रथमं
संख्याकं गीताश्लोकम् उच्चैः पठित्वा एतासु पङ्क्तिषु त्वान्तरूपं त्वान्तव्यबन्तं वा जानीत दृष्ट्वा तु पाण्डवानीकं किं कृत्
केवलं त्वान्तरूपमस्ति वा ल्यबन्तरूपमस्ति वा इति
दृष्ट्वा तु पाण्डवानीकं त्वान्तरूपम् अस्ति
त्वान्तरूपम् अस्ति समीचीनं अस्तु सूर्यकुमारी भगिनी अग्रे अग्रिममपि तत्र दृष्ट्वा एव अस्ति धनुः धनुः इति उद्यम्य उद्यम्य इति मन्ये तत्र बुद्ध्या इति द्वितीय उद्यम्य
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 उपसर्गः अस्ति चेत् लबन्तरूपं
लबन्तरूपम् अस्ति तत्र समीचीनं भगिनि रघुपतिमहोदय अग्रिमम्
अस्तु निहत्य दातृराष्ट्रान् नः इति अस्ति निहत्य इति नि उपसर्गयुक्त हन् धातु अस्ति अतः निहत्य इति
ल्यबन्तरूपं समीचीनं बाणचेतन महोदय अग्रे
तत्रैकाग्रं मनः कृत्वा महोदय कृ धातु अस्ति तत्र तस्य त्वान्तरूपं कृत्वा
कृत्वा इति अस्ति
तत्र उपसर्गरहितधातुः अस्ति अतः त्वान्तरूपम्
त्वान्तरूपं समीचीनं महोदय नरेश महोदय इदानीम् उपविश्य सर्वद्वाराणि तदेव तदेव
सर्वद्वाराणि संयम्यं
संयम्य
संयम्य मनो यदि निरुद्ध्य च संयम्य निरुद्ध्य ज्यबन्तरूपम् अस्ति उपसर्ग सम् अस्ति नि अस्ति संयम्य निरुद्ध्य
समीचीनं महोदय अस्तु रघुपतिमहोदय अग्रे
आं महोदय उपविश्य आसने युञ्जत युञ्जियात् इति उपविश्य उपयोग विष्टात् अस्ति अतः उपविश्य इति लबन्तरूपं भवति उपसर्ग युञ्जात् इति किमर्थं युञ्जात् इति योजनं वा इञ्ज्यात् आसने
अथवा द्रष्टव्यम् अस्ति महोदय, प्रायशः तदेव अस्ति इति मन्ये. युञ्ज्यात् खलु
उपविशतु वा न न उपविश्य आसने युञ्ज्यात् किमपि अन्यत्
हा युञ्जात् सिटिङ्ग् देर् ओन् इस् सीट् इति अस्ति. युञ्ज्यात् आसने युञ्ज्यात् प्रायशः तदेव अस्ति तत्र आसने उपविश्य इति. ओ उपविश्य एव अस्ति. युञ्ज्यात् इति किमस्ति उपविश्य एव अस्ति तत्र. युञ्ज्यात् योगमात्मविशुद्धये तत्र द्रष्टव्यमस्ति महोदय, तत्र किमपि लभ्यते वा, प्राप्तवान् वा? अस्तु सूर्यकुमारी भगिनी.
आं महोदय, ज्ञात्वा भूतादिदम् अव्ययम् ज्ञात्वा त्वान्तरूपम् उपसर्गरहितः.
उपसर्गरहित क्रियापदं समीचीनं भगिनि. अस्तु बालचेतन महोदय अग्रे.
महोदय, धृत्यात्मानं नियम्यते यम् धातु अस्ति महोदय, यमयति, तत् उपसर्गमस्ति नि पूर्वं, निपूर्वक उपसर्गमस्ति, उपसर्गपूर्वकधातु अस्ति, अतः तत्र लबन्तरूपमेव प्रयोगं करणीयं. नियम्य धृत्यात्मानं नियम्य च,
तत्र च इति अस्ति, अतः धृत्य आत्मानं नियम्य इति प्रायशः अस्ति इति मन्ये खलु.
धृत्य अपि अस्ति महोदय.
धृति आत्मानं नियम्य इति च वा, धृति अथवा धृत्यात्मानम् इति भवति वा?
धृति
आत्मानं नियम्य च,
किन्तु च इति अस्ति खलु तत्र. अस्तु, तत्र चकारः, तत्र क्रियापदस्य चकारः प्रायशः नास्ति, अन्यत् किमपि तत्र चकारः अस्ति, किन्तु किमर्थं तत्र दत्तवन्तः खलु तत्र.
श्लोके किमत्र अन्यत् भवेत्
महोदय, द्वितीया अपि लबन्तरूपं वा महोदय?
न प्रायशः
धृति धृति आत्मानम् इति भवति, धृत्यात्मानम् इति सन्धि
धृति आत्मानं नियम्य च. तत्र बुद्ध्या विशुद्धा बुद्धया विशुद्धया युक्तः धृति आत्मानं नियम्य च. अस्तु, तत्र केवलं नियम्य एव इदानीं अस्माकं विषयः. नियम्य इति लबन्तरूपम् अस्ति. तावदेव. अस्तु, इदानीं किं तत्र प्रणम्य अस्ति, भूत्वा इति अस्ति. अस्तु समीचीनं, तत्र त्वान्तरूपं लबन्तरूपं तद् अस्माभिः कृतम्. इदानीम् अग्रे गच्छामः. तत्र लबन्तरूपम् अस्ति चेत् जानीमः उपसर्गसहितक्रियापदं तत्र अस्ति, त्वान्तरूपम् अस्ति चेत् उपसर्ग नास्ति क्रियापदे इति तद् ज्ञातुं शक्नुमः तत्र. अस्तु, तर्हि इदानीम् अग्रे गच्छामः, तत्र अग्रिम अध्यायः. तत्र सूर्यकुमारी भगिनी अग्रे पठति वा?
महोदय, आत्मैव आत्मानो बन्धुः च अपि एव इति यत् शब्दाः एतानि वाक्यानि उच्चारयत. कुन्त्याः पुत्राः युधिष्ठिरः भीमः अर्जुनः च सन्ति.
अत्र च इत्युक्ते किम्? सर्वे तत्र कुन्त्याः पुत्राः के इति तत्र उक्तमस्ति. ते सर्वे तत्र युधिष्ठिरः भीमः अर्जुनः च इति चकारः अन्ते भवति. तत्र सङ्ग्रहणं भवति, ग्रुपिङ्ग् सङ्ग्रहणं भवति. सर्वे पुत्राः इति समीचीनं भगिनि. तत्र आत्मा एव आत्मनः बन्धुः, आत्मानो बन्धुः, आत्मनः बन्धुः. आत्मनः इति षष्ठी विभक्ति. आत्मा एव आत्मनः बन्धुः इति. अस्तु भगिनि अग्रे पठतु. आत्मनः बन्धुः इति सेल्फ् इस् ओन्ली द सेल्फ् इस् द फ्रेण्ड् आफ् द सेल्फ् तादृश बन्धुः. अस्तु अग्रे भगिनि.
सत्त्वं रजः तमः च इति त्रयः गुणाः.
इदानीं च इति जानीमः. च इत्युक्ते सत्त्वं रजः तमः त्रयः च पदेन, त्रयमपि च पदेन सूचितम्. किन्तु इति अस्ति तत्र. इदानीं तत्र इति युक्ते किं? तत्र रघुपतिमहोदय तत्र च इति तस्य नाम, तस्य नाम त्रयः गुणाः इत्युक्ते त्रयः गुणाः के इत्युक्ते यादृशं तत्र त्रयः गुणाः सत्त्वं रजः तमः इति त्रयः गुणाः च इति त्रयः गुणाः तत्र
समुच्चयः इत्यर्थे भवति.
त्रयः गुणाः तस्य त्रयः गुणाः इत्युक्ते किम् इति प्रश्नस्य अर्थः सत्त्वं रजः तमः इति. तत्र
अत्र च इति मध्ये अपि भवितुम् अर्हति वा? सत्त्वं च रजः च तमः च इति तदपि भवति वा?
तत्र तादृश तत्र तत्र चकारः मध्ये अस्ति चेत् तत्र वयं पृथक्तया वक्तुम् इच्छामः इति अस्ति, पृथक्तया सूचितम् इति. तत्र समूह च इति
समूह भवति.
सर्वदा समूह भवति अन्ते अस्ति चेत्
न महोदय. अत्र सेवेन्त् पश्यतु, साङ्ख्यं च योगं च
तत्र किञ्चित् भिन्नः अस्ति. समीचीनं तत् कुर्मः तदपि. समीचीनं सप्तमं तत्र किञ्चित् भेदः अस्ति, पश्यामः. भगिनी तत्र एतद् द्वितीयवाक्यं दृष्ट्वा प्रथमवाक्यस्य परिवर्तनं कृत्वा वदतु. न द्वितीयवाक्यं सत्त्वं रजः तमः च इति त्रयः गुणाः. इदानीं प्रथमं वाक्यं यत् भवती पठितवती, कुन्त्याः पुत्राः,
युधिष्ठिरः भीमः अर्जुनः च इति
न तत्र एतद् तादृशं तत्र एतादृशं रूपं तत्र किं त्रयः गुणाः इति तत् किं भवति तत्र एते गुणाः लोके प्रसिद्धमस्ति त्रयः गुणाः इति. तत्र अत्र तादृशरूपस्य अत्रापि कर्तुं शक्नुमः. रूपं कीदृशं भवति? युधिष्ठिरः यद् वक्तुम् इच्छामः सत्त्वं रजः तमः इति तत् प्रथमम्. अतः युधिष्ठिरः
भीमः
अर्जुनः च त्रयः कुन्त्याः पुत्राः सन्ति
इति भवति तत्र.
तत्र नामकरणम् अथवा एतत् पश्यतु एतत् एते एव त्रयः गुणाः एते एव त्रय पुन्त्याः त्रयः पुत्राः इति तत्र तत्र सप्त नद्य सप्त
लिमिट् करोति वा अत्र महोदय अत्र इति इत्युक्ते यथा युधिष्ठिरभीमः अर्जुन च इति त्रयः कुन्त्याः पुत्र इति इत्युक्ते केवलं त्रयः एव कुन्त्याः पुत्र इति तादृश अर्थः भवति वा
तादृशरूपं नास्ति किन्तु तत्र त्रयः गुणाः इति प्रसिद्धः अस्ति खलु त्रयः गुणाः इत्युक्ते किम् अतः इति त्रयः गुणाः इति युक्ते एतद् एव एतद् एषः एव तादृशार्थे
च इति त्रय च इति त्रयः एव सन्ति
च इति त्रयः
एव सन्ति
इदानीमेव मास्तु केवलं च एव इति मास्तु इदानीं केवलं च अपि इति अस्तु अग्रे नरेश् महोदय पठति वा अग्रे
जाग्रत् स्वप्नः सुषुप्तिः च इति तिस्रः अवस्थाः सन्ति
तिस्रः अवस्थाः काः तिस्रः अवस्थाः काः तिस्रः अवस्थाः
तिस्रः अवस्थाः जाग्रत् स्वप्नः सुषुप्तिः
इति इति च इति तिस्रः अवस्थाः तिस्रः अवस्थाः यदि कुत्रापि वयं शृण्मः अथवा पठामः तत्र अवगन्तव्यम् अस्ति तिस्रः अवस्थाः इत्युक्ते जाग्रत् स्वप्नः
त्रीलिङ्ग
तिस्रः अवस्थाः सुषुप्तिः इति तिस्रः अवस्थाः इति समीचीनं महोदय अग्रे भानचेतन महोदय
महोदय भगवद्गीता ब्रह्मसूत्रम् उपनिषदः च प्रस्थानत्रयी
तत्र प्रस्थानत्रयी इति तत्र
प्रस्थानत्रयी इत्युक्ते भगवद्गीता ब्रह्मसूत्रम् उपनिषदः च
उपनिषदश्च प्रस्थानत्रयी
महोदय पूर्वं किं चर्चा किम् अस्ति महोदय तत्
इति इत्युक्ते किम् अस्ति इति तत्र अग्रे अग्रे पश्यामः
महोदय केवलं प्रथमवाक्येषु तु च एव अस्ति द्वितीयवाक्येषु इति अस्ति
तत्र समूहस्य नाम प्रसिद्धनाम अस्ति इति कृत्वा इति मन्ये त्रयः गुणाः इति प्रसिद्धनाम अस्ति सप्त नद्यः इति
प्रसिद्धमेव इत्युक्ते वेदान्तशास्त्रे तु एतत्
त्रयमेव
अतः इति न भवितुम् अर्हति वा च इति प्रस्थानत्रयी इति भवति वा
इति मन्ये महोदय
तदेव अस्ति अष्टमे अस्ति तत्रापि भगवतः प्रकृति अष्टदा इति च इति अस्ति तत्र अतः चिन्तयामि च इति इत्युक्ते सर्वम् आयाति ये प्रसिद्धा अस्ति तादृश अस्ति इति भवति वा
तत्र एकं तत्र वक्तुं शक्नुमः तत्र तत्र
इम्पोर्टेण्ट्
समूहे यदि सर्वे दत्तं समूहे सर्वं दत्तं तत्र जाग्रत् स्वप्नः सुषुप्तिः इति दत्तमस्ति. अत्र तु भगवद्गीता ब्रह्मसूत्रं तत्तु एकमेकं दत्तमस्ति. तदनन्तरम् उपनिषदः इति उपनिषद तत्र उपनिषदः एवं केवलं तदेव दत्तं, न तु प्रत्येकस्य नाम नाम न दत्तमस्ति खलु तत्र इति तत्र समूह तदपि नूतनसमूहः इति कृत्वा तत्र इति नास्ति इति मन्ये. यदि एतादृशं भवति खलु तत्र प्रसिद्धाः अष्टादश उपनिषदाः सन्ति इति तत्र बहुत्र एतादृशं पश्यामः. तत्र के अष्टादशाः अष्टादश उपनिषदाः इति प्रश्ने सति तत्र वयं वक्तुं शक्नुमः अस्तु बृहदारण्यक ईशवस्य तत् च इति अष्टादश उपनिषदाः इति.
वयं स्तोत्रे अपि अन्ते इति रामायणं सम्पूर्णं इति सम्पूर्णार्थे इति भवति सम्पूर्णं
तत् इति इत्युक्ते दिस् इति
अग्रे
भिन्नार्थ तत्र इति पदं बहुकार्यं करोति बहुकार्यं करोति. अतः तत्र पश्यामः किञ्चित् अस्तु वनचेतनी महोदय तत्र भवान् पठितवान् अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे.
महोदय मानापमानयोः
शत्रौ
भीत्रे च समः जनः कृष्णस्य प्रियः. मानापमानयोः शत्रौ मित्रे च समः जनः कृष्णस्य प्रियः.
समः जनः यः यत् पूर्वम् आसीत् तत्र समदृष्ट्या पश्यति तादृशः जनः कृष्णस्य प्रियः. किन्तु किं समानदृष्ट्या पश्यति तत्र किञ्चित् क्लेशः एव अस्ति. मानम् अपमानम् इति मानं तत्तु जानीमः, अपमानं तदपि जानीमः. तयोः शत्रौ मित्रे च
समः
तत्र शत्रौ मित्रे इति अस्ति तत्र वचनं किं शत्रौ इति वचनं किं
शत्रुः
सप्तमी एव शत्रौ इति शत्रोः न शत्रौ
शत्रुः नास्ति शत्रुः नास्ति
वनयोः शत्रौ मित्रे च शत्रुः शत्रौ शत्रवः शत्रौ
मित्रौ
शत्रौ इति सप्तमी भवति महोदय एकवचनमस्ति वा शत्रु शत्रौ गुरौ
तत्र गुरौ इति
मित्र मित्रं मित्रे इति सप्तमी भवति शत्रौ मित्रे च शत्रौ मित्रे च
गुरौ इति अस्ति तत्र शत्रौ शत्रौ
मित्रे
च
बहुवचनं
न तदपि मित्रम् इति तदपि
मित्रं मित्रे एकवचने सप्तमी भक्ति
समः जनः कृष्णस्य प्रियः इत्युक्ते इत्युक्ते मानमपि अस्ति अपमानमपि अस्ति. केवलं मानं मम मित्रमस्ति अपि अपमानं मम शत्रु अस्ति इति तादृशचिन्तनं मास्तु. किन्तु मानमपि शत्रु न शत्रु अपि अस्ति मित्रमपि अस्ति अपमानमपि शत्रु अपि अस्ति मित्रमपि अस्ति इति यः समदृष्ट्या पश्यति तादृशः जनः कृष्णस्य प्रियः इति इति मन्ये.
तादृश एव अस्ति,
तादृशं किमपि अस्ति. च समः जनः
तत्र क्लेशः अस्ति.
हा हा, क्लेशः अस्ति तत्र. हा च इति, हा च इत्युक्ते शत्रौ मित्रे च समः. कस्मिन् मानम् अपमानयोः, अपमाने तत्र मानम् अपमानयोः तु तत्र षष्टि इति मन्ये, तदनन्तरं शत्रौ मित्रे इति सप्तमी, यथा रघुपतिमहोदय उक्तवान्. तदनन्तरं च समः जनः कृष्णस्य प्रियः. अस्तु, हा समीचीनम्. अस्तु भानुचितनी महोदय अग्रे.
संन्यासः कर्मयोगः च निःश्रेयसकरौ सः. महोदय,
संन्यासः
निःश्रेयसकरौ इत्युक्ते संन्यासः कर्मयोगः.
हा, ते किं कुर्वन्ति? श्रेय
द्वे,
हा द्वे अपि भवति अथवा न भवति
निःश्रेयस्कर नास्ति वा?
अतः भवति
न न तत् निःश्रेयस्करः द्वौ अस्ति, अत्र द्विवचने अस्ति. निःश्रेयस्करौ इति अस्ति, श्रेयस्करौ नास्ति वा सन्यासः कर्मयोगः?
निःश्रेयस्कर इत्युक्ते कन्फरिङ्ग् एव, निःश्रेयस्कर इत्युक्ते निश्चयेन इति यादृशं रूपम् अस्ति तत्र, तादृशं वस्तुतः इति, हा वस्तुतः इति तत्र श्रेयस्करौ, निःश्रेयस्करौ स्तः.
आश्रयस्कर इति भवति, न श्रेयस्कर इति.
श्रेयस् संन्यासः अस्ति, तस्मात् श्रेयस् भवति, अपि कर्मयोगात् अपि श्रेयस् भवति इति, द्वाभ्यामपि श्रेयस् भवति इति. श्रेयस् करः, करः इति इत्युक्ते कुर्वन्ति.
तत्र स्तः इति
अस्ति. नी अत्र उपसर्ग अस्ति, तत्र तत्र उपसर्गस्य भिन्न भिन्न किं कार्यम् अस्ति. अत्र प्रायशः अर्थस्य तादृश तादृशम् अस्ति अत्र. अस्तु अग्रे, हा रघुपतिमहोदय अग्रे.
साङ्ख्यं च योगं च एकं यः पश्यति सः पश्यति. साङ्ख्यं च योगं च एकं यः पश्यति सः पश्यति
इत्युक्ते साङ्ख्यं च योगं च इति तत्र साङ्ख्यं, हा साङ्ख्यम् एकमस्ति, योगम् अन्यत् अस्ति इति चिन्तनम् अपि कर्तुं शक्नुमः. किन्तु यः साङ्ख्यम् एव योगमपि
समान एव, द्वौ अपि समान एव,
अतः तत्र च इति तत्र समूहः इति अत्र तादृश अर्थः नास्ति अत्र. साङ्ख्यम् एकं साङ्ख्यम् अस्ति, अत्र विषयद्वयं नास्ति, प्रथमविषयः अपि द्वितीयः समानः इति वक्तुम् इच्छामः. साङ्ख्यं च योगं च एकं यः पश्यति
सः पश्यति,
सः पश्यति इत्युक्ते यस्य मनसि साङ्ख्ययोगतयोः मध्ये भेदः नास्ति, यस्य मनसि सः एव सः पश्यति.
सः पश्यति एकमेव,
न न यदि एकम् एव इति पश्यति सः पश्यति, अन्ये न पश्यन्ति. एतत् किं पश्यति इति तद् भिन्नम् अस्ति खलु वार्ता, तद् भिन्ना वार्ता अस्ति. किं पश्यति तत्र प्रायशः किं पश्यति इति भगवद्गीता दृष्ट्वा एव ज्ञातुं शक्नुमः. किन्तु तत्र प्रत्येकं तत्र समूहः नास्ति, साङ्ख्यं च योगम् एकमेव इति वक्तुम्
इच्छामः.
अतः तत्र चकारस्य च इति पदस्य अर्थः किञ्चित् भिन्नः अस्ति अत्र. अस्तु नरेश महोदय अग्रे.
भूमिः पापः अनलः वायुः खं
वायुः
मनः वायुः खं मनः बुद्धिः अहङ्कारः च इति भगवतः प्रकृतिः अष्टधा
एतत् बहु प्रसिद्धः अस्ति खलु, सर्वे जानन्ति इति मन्ये. तत्र किम् अस्ति
पञ्चभूताः
इत्युक्ते जलम् आपः इत्युक्ते जलं भूमिः अथवा पृथ्वी, आपः इत्युक्ते जलम्, अनलः इत्युक्ते
अग्निः,
वायुः, खम् इत्युक्ते आकाशः, तदनन्तरं मनः
बुद्धिः
अहङ्कारः च इति भगवतः प्रकृतिः अष्टधा. अष्टधा इत्युक्ते तत्र अष्टखण्डानि अथवा भागम् इति तत्र खण्डं कृत्वा एट् पीसस् अथवा एट् फोल्ड् इति अष्टधा.
इति अर्थः सम्पूर्णः गुणाः
तत्र सर्वं प्रकृति प्रकृतेः अष्टखण्डाः एते इति प्रसिद्धः तत्रैव पश्यामः. समूहः सम्पूर्णसमूहः तत्र दत्तमस्ति. प्रकृतिः प्रकृतेः भगवतः प्रकृतेः अष्टखण्डाः किम् इत्युक्ते एते भूमिः आपः नलः वायुः कं मनः बुद्धिः अहङ्कारः इति
द्विधा त्रिधा इति पञ्चधा इति
अष्टखण्डाः इति
च इति अस्ति चेत् न अन्याः सन्ति च प्रसिद्धः
लोके प्रसिद्धः प्रसिद्धः इत्युक्ते तदेव नामकरणम् अस्ति इति यदि अहं वदामि रामः गिरीशः न मधुसूदनः इति तत्र अस्ति च सन्ति तत्र किमपि नास्ति खलु च सन्ति पुरुषाः कोऽपि पुरुषाः तत्र सन्ति इति किन्तु यदि अहं वदामि अस्तु तत्र युधिष्ठिरः भीमः अर्जुनः नकुलः सहदेवः च इति पञ्चपाण्डवाः पञ्चपाण्डवः इत्युक्ते ते तत्र अत्र यत् पदं च इति तस्य अनन्तरं यत् भवति तद् च इति पूर्वस्य पूर्वसमूहं यदस्ति तं सूचयति. नो चेत् चकारः अस्ति चेत् किं भवति रामः गिरीशः मधुसूदन सन्ति च सन्ति पाठशाले पाठशालायां सन्ति अथवा मन्दिरे सन्ति इति किमपि भवति तावदेव. तत्र तस्य समूहस्य किमपि नाम नास्ति.
च उपयोगः त्रिवेदः विभन्नः इयं सन्ति एकः
तत्र इदानीं भवती किं किं वक्तुम् इच्छति अत्र?
छाप्रयोगः त्रिविधं विवर्णम्.
एतत् कुत्र अस्ति?
नो अहं वदामि.
अस्तु 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 भवत्याः अस्तु अस्तु अवगमनं वदति. अस्तु वदतु भगिनि.
प्रथमं छा इति सम्पूर्णं प्रति
सम्पूर्णं समूहं सूचयति
सूचयति. अन्ते छा इति समूहं न प्रसिद्धि
प्रसिद्धः अथवा तस्य नामकरणं समूहस्य नामकरणं
च मध्ये भिन्नविषयाः सन्ति. भिन्नविषयाः सन्ति साङ्ख्या च योग च भिन्नभिन्न
सन्ति सन्ति सत्यं
त्रिविधप्रयोगं
समीचीनं समीचीनं भगिनि. तर्हि अस्तु तत्र अग्रे गच्छामः. तत्र भानुचेतनी
महोदय तत्र सप्तमवाक्येषु साङ्ख्यञ्च योगञ्च पुनरेकवारं वदतु महोदय, किमर्थं चकारद्वयमस्ति तत्र?
तत्र विषयद्वयमस्ति, साङ्ख्यम् एकमस्ति, योगम् एकमस्ति. एकः विषयः साङ्ख्यम्, अन्यः विषयः योगम् इति. किन्तु तत्र साङ्ख्यं योगं च इति वदामश्चेत् किं भवति? तत्र साङ्ख्यं योगम् इति समूह भवति, किन्तु समूहं न वक्तुमिच्छामः तत्र. केवलं साङ्ख्यम्
तस्य पूर्वं यथा संन्यासः कर्मयोगः च, संन्यासः अपि भिन्नमस्ति, कर्मयोगः अपि भिन्नमस्ति.
किन्तु किन्तु तत्र किं
भिन्नरीत्या
महोदय? सत्यं, किन्तु तत्र किं, तत्र संन्यासः भिन्नः, कर्मयोगः भिन्नः, अपि भगवद्गीता भिन्ना, ब्रह्मसूत्रं भिन्नम्, उपनिषदः भिन्नः, सत्यमेव. किन्तु षष्ट तत्र पूर्वस्मिन् वाक्ये किम् आसीत्? संन्यासः कर्मयोगः च. तत्र च इत्युक्ते तत्र समूहः अस्ति. समूहे किम् अस्ति? संन्यासः एकः सदस्यः, अन्यः सदस्यः कर्मयोगः. सदस्यद्वयमस्ति तस्मिन् समूहे. अस्तु, द्वयमपि सदस्यो द्वौ अपि निःश्रेयस्करौ. निःश्रेयस्करौ कं सूचयति? संन्यासमपि सूचयति, कर्मयोगमपि सूचयति. तत्र निःश्रेयस्करौ तद् द्वयं तत्र सदस्यद्वयमस्ति, प्रथमसदस्यः अपि द्वितीयसदस्यः द्वौ सदस्यौ निःश्रेयसकरौ स्तः इति. किन्तु अत्र किमस्ति? वयं किं वक्तुम् इच्छामः? तत्र साङ्ख्यं च योगं, तत्र साङ्ख्यं योगम् इति तस्मिन् तस्य समूहस्य किमपि न वक्तुम् इच्छामः. साङ्ख्यं योगं तस्य विषये किमपि न वक्तुम् इच्छामः. साङ्ख्यं च योगं च एकम् इति. तत्र पृथक् कृत्वा पुनः वयं वक्तुम् इच्छामः तत्र एकम् एव अस्ति. तत्र समूह कुर्मश्चेत् किं भवति? एकस्मिन् समूहे सदस्यद्वयं भवति, किन्तु तद् न वक्तुम् इच्छामः. समूहः तत्र नास्ति एव, एकः एव अस्ति इति वक्तुम् इच्छामः. साङ्ख्यं योगं तद् चिन्तयामः, तत्र द्वयं तत्र पृथक्, तत्र साङ्ख्यम् इति एकम्, अपि योगमिति अन्यत्. किन्तु साङ्ख्यं योगं साङ्ख्यं च योगं च एकम् इति इति कथनेन तत्र भेदः नास्ति, साङ्ख्यम् एव योगम् इति तादृश अर्थः अस्ति इति मन्ये तत्र.
अस्तु महोदय,
धन्यवादः. अस्तु अग्रे महोदय, तत्र उच्चैः पठत इति तत्र अग्रे अधोभागे अस्ति, तत् पठतु महोदय.
रमा पठति, नूतनः पठति, गिरिः पठति, रमा
तत्र इदानीं किं भवति चकारस्य योजनेन किं सूचितं? सर्वे पठन्ति.
दीर्घवाक्यं तु लघु भवति.
हा, लघु भवति. अपि पूर्वं चपदस्य पूर्वं यः समूहः अस्ति तस्मिन् समूहे ये प्रत्येकसदस्यः अपि सः सर्वे अपि पठन्ति इति खलु? सर्वदा अन्ते महोदय, सर्वदा अन्ते. बानचरि महोदयस्य प्रायशः दूरवाणी भग्नः तत्र सः पुनरागच्छति. अस्तु, भानुचरणी महोदय श्रूयते वा इदानीं? चिन्ता मास्तु, एकघण्टा भवति.
चकारः कुत्र स्थापनीयम् इति मम प्रश्नः अस्ति महोदय. रमा च नूतनः गिरिः पठन्ति इति अपि
न आङ्ग्लभाषायां, आङ्ग्लभाषायां यादृशप्रयोगः अस्ति तादृश संस्कृते नास्ति महोदय. संस्कृते चकारः सर्वदा अन्ते एव भवति
महोदय.
आङ्ग्लभाषायां तु चकारः अन्तिमसदस्यस्य, समूहस्य अन्तिमसदस्यस्य पूर्वं भवति.
पूर्वं
किन्तु अत्र भिन्न प्रयोगः, भिन्नः.
किन्तु समूहस्य अन्ते स्थापनीयं महोदय.
स्थापनीयं, सत्यं. तत्र समूहः
समूहस्य अन्ते
अन्ते भवति.
महोदय,
अस्तु अग्रे
अग्रे पठनीयं वा महोदय?
पठतु महोदय. तत्र अत्र
शिशवः, बालाः, युवकाः, युवत्यः, ज्येष्ठाः च सन्ति.
अत्र सम्पूर्णसमूहः सूचितं
शिशवः सन्ति, शिशवः सन्ति, बालाः सन्ति, युवकाः सन्ति,
युवत्यः सन्ति, ज्येष्ठाः अपि सन्ति इति. समीचीनं. अस्तु नरेश महोदय अग्रे.
प्रयागे गङ्गा, यमुना, सरस्वती च इति सह नद्यः मिलन्ति. सो गङ्गा, यमुना, सरस्वती अस्ति, प्रयागे मिलन्ति. स्त्रीलिङ्ग अस्ति, तिस्रः नद्यः मिलन्ति.
तिस्रः किमर्थम्?
स्त्रीलिङ्ग अस्ति, गङ्गा, यमुना, सरस्वती
अपि नद्यः, नद्यः अपि स्त्रीलिङ्गे अस्ति, नदी इति. समीचीनं महोदय. तत्र च इति तिस्रः नद्यः, प्रयागे तिस्रः नद्यः काः इत्युक्ते तत्र गङ्गा, यमुना, सरस्वती इति तत्र च इति. तत्र च इति तत्र अहं मम मतमस्ति तत्र इति तत् त्यक्तुमपि वक्तुं शक्नुमः. प्रयागे गङ्गा, यमुना, सरस्वती च तिस्रः नद्यः मिलन्ति, तदपि साधु एव, किन्तु प्रसिद्धाः नद्यः इति कृत्वा वयम् इति अत्र स्थापितुं शक्नुमः.
ते एव अथवा प्रसिद्धाः.
सत्यं महोदय. सूर्यकुमारी भगिनी अग्रे.
अस्माकं परीक्षा सोमवासरे, मङ्गलवासरे च अस्ति. समूहः एव.
हा, तत्र समूहः अस्ति, किन्तु इदानीं तत्र किमर्थम् समूहे सदस्य एकम् एकः सदस्यः अथवा सदस्यद्वयम् अथवा सदस्यत्रयं, किम् समूहे चकारस्य पूर्वं द्वयम् अस्ति खलु, सोमवासरे मङ्गलवासरे इति अस्ति, किन्तु तत्र किमर्थम् अस्ति इति एकवचने. हा, परीक्षा अस्ति, परीक्षा अस्ति सोमवासरे मङ्गलवासरे च अस्ति इति. समीचीनं भगिनि. हा, अस्तु. हा, अग्रे रघुपतिमहोदय.
विमलायाः विमलेशस्य च कक्ष्या कुत्र अस्ति? अत्र विमला अपि च विमलेश द्वयोः समूहं.
हा, तत्र समूहः च
कक्ष्या कुत्र अस्ति इति.
कुत्र अस्ति
कस्य? विमलेशस्य, विमलेशस्य विमलायाः च.
कक्षा कुत्र अस्ति, तत्र अर्थः कः? वयं चिन्तयामः तत्र विमलायाः कक्ष्या अपि विमलेशस्य कक्ष्या एका एव इति. नो चेत् प्रश्नः कीदृशं भवति?
कुत्र स्तः?
हा, विमलायाः च विमलेशस्य च कक्ष्या नदी नद्य लता लते लताः. कक्ष्या कक्ष्ये
कक्ष्ये कुत्र स्तः?
कुत्र स्तः इति तादृशं रूपं भवति. हा, तत्र इदानीं तत्र नूतनविषयमपि तत्र अस्ति. किम् इत्युक्ते पूर्वं वयं किं दृष्ट अस्माभिः किं दृष्टं? चकारस्य पूर्वं समूहः सर्वदा कीदृशम् आसीत् चेत् तत्र युधिष्ठिरः, भीमः, अर्जुनः, विभक्ति का तत्र?
उदाहरणे नास्ति शत्रो मित्रे च नास्ति.
हा, तत्र शत्रो मित्रे च समजनः तत्र सप्तमी आसीत्. तदनन्तरं साङ्ख्यं च योगं च एकं यः पश्यति तत्र किं भवति? साङ्ख्यं च योगं च एकं यः पश्यति पश्यति किं पश्यति? यः पश्यति यः इति कर्तृपदं. किं पश्यति? एकं. किम् एकं? हा, योगम् अपि साङ्ख्यं च एकं. तत्र साङ्ख्यं योगं द्वितीयविभक्तिरूपम्. अतः तत्र द्वितीयविभक्तिः अपि तत्र चकारस्य पूर्वं समूहः यदस्ति तद् समूहः सर्वदा प्रथमाविभक्तौ एव भवति इति न, किन्तु तत्र द्वितीयविभक्ति वा सप्तमविभक्ति वा. अत्र किम् आसीत् तत्र कुत्र? हा, सोमवासरे मङ्गलवासरे तत्र सप्तमीविभक्तिः आसीत् चकारस् अपि. इदानीं विमलायाः विमलेशस्य तत्र षष्टिविभक्ति. हा, इदानीम् अग्रे भानुचेतनी महोदय अग्रे पठतु.
महोदय, इदं किं पठनीयं महोदय?
इदं जलम्.
इदं जलम्. इदं जलं राजेशाय, कल्पनायै, रमायै च यच्छतु.
तत्र समूहे
एकवचने महोदय, राजेशाय यच्छतु, कल्पनायै यच्छतु, रमायै यच्छतु. समूहम् इति कृत्वा इदं जलं राजेशाय, कल्पनायै, रमायै च यच्छतु. रमायै, राजेशाय, एतत् चतुर्थी
विभक्ति अस्ति महोदय. हा, समीचीनं महोदय, समीचीनं. हा, अपि यच्छतु तत्र पुरुषः कः? प्रथमपुरुषः
प्रथमपुरुष एकवचनं.
हा, लोट्लकार. हा, मध्यमपुरुषे किं भवति?
यच्छ
तु इति.
यच्छ,
समीचीनम्. अस्तु. हा, अस्तु. अग्रे सूर्यकुमारी भगिनी अवधेयम् इति यत् अस्ति तद् एकवारं पठतु भगिनि.
च इति अव्ययस्य प्रयोगः समुच्चयः इति इत्यर्थे भवति. उदा आम्रं सेवफलं च. माता पिता बालाः च गच्छन्ति.
समुच्चयः इत्युक्ते समूहः सर्वं सङ्गृह्णं कृत्वा मिलित्वा इति प्रत्येकं प्रत्येकम् अस्ति तत् सर्वं सङ्गृह्णं कृत्वा एकस्मिन् स्थाने स्थापयित्वा समूहं कृत्वा इति च इति तस्य च इति पदस्य अर्थः तत् तादृशम् अस्ति इति. अस्तु हा अग्रे नरेश महोदय अग्रे अपि इति अस्ति.
आं महोदय उच्चैः पठत. केवलं बालाः न युवकाः अपि भविष्यन्ति.
हा इत्युक्ते किं तत्र अपि इति किमस्ति?
अपि न जानामि.
अल्सो इति तत्र केवलमिति तत्र अस्ति तस्य
केवलं बालाः
विरोधः.
केवलम् अपि केवलं तत्र नकार अस्ति चेत् तत्र अपि इति केवलम् एतद् न अपि तु एतद् हा तत्र केवलम् इत्युक्ते तत्र जस्ट् इति केवलं न इत्युक्ते नाट् जस्ट् नाट् जस्ट् दीस् बट् आल्सो दीस् अदर्स् इति परन्तु इति हा तादृशार्थे केवलं बालाः धाविष्यन्ति इति न किन्तु युवकाः अपि
धाविष्यन्ति
ते अपि तत्र सन्ति युवकाः अपि धाविष्यन्ति. समीचीनं रघुपतिमहोदय अग्रे.
महोदय महोदय तस्मिन् अग्रे महोदय यद् मया पठितम् इदं जलं राजेशाय कल्पनायै तत् एकवारं पश्यतु महोदय. तत्र कल्पनायै अनन्तरम् आङ्ग्लभाषायां यद् अल्पविरामं कोमा इति वदति तद् किमर्थं दत्तं महोदय?
हा तत्र तस्य नियमः अहं न जानामि महोदय किमर्थं तत्र
प्रश्नः
प्रश्नः समीचीनमेव अस्ति. तत्र पश्यतु तत्र अस्मिन्नेव पुस्तके तत्र उपरि दत्तानि वाक्यानि यानि सन्ति तेषु तु तत्र सत्त्वं रजः तमः तत्र तु
न महोदय तत्र भीम अन्तिम अन्तिमस्य पूर्वं कम भवति
न न न तत्र भूमिः आपः अनलः तत्र सर्वत्र
सेण्टेन्स् महोदय
न कृत् न
लाजिक् इस् फिट्टिङ्ग् दि सेण्टेन्स्
न न नास्ति तत्र किमपि
तत्र तत्र मम
नास्ति न कोम नास्ति किल
तत्र सम्यक्तया न अहं न जानामि महोदय. अहं कमपि पृष्ट्वा उत्तरं प्राप्य
मुद्रणदोषः महोदय
अत्र प्रायशः मुद्रणदोषः
अनन्तरं
नो चेत् राजेशाय तदनन्तरं कोम कल्पनायै अपि कोम रमायै इति प्रायशः भवति.
परन्तु
कोमा अल्पविरामः तु नास्ति इति अहं मन्ये महोदय.
हा प्रायशः नास्ति तत्र इदानीम् आङ्ग्लभाषायाः किं
प्रभावात्
प्रभावः
शिक्षाकार्यार्थं शिक्षाय कार्यार्थं कम स्थापयति
सुलभ अवगमनार्थं प्रायशः इति चिन्तयितुं शक्नुमः. सत्यं सत्यं सत्यं.
महोदय अग्रिमवाक्यं पठामि वा महोदय?
हा पठतु महोदय. महाभारते इति
महाभारते केवलं कथाः न तत्त्वचिन्तनम् अपि अस्ति.
महाभारते केवलं
महाभारते कथाः अस्ति तत्त्वचिन्तनम् अस्ति.
हा
महाभारते केवलं कथाः न तत्त्वचिन्तनमपि अस्ति. नकारः तत् प्रयोगं कृतवन्तः.
नकार इत्युक्ते केवलं तद् न किन्तु एतत् अन्यत् अपि अस्ति इति.
यदि नकारः प्रयोगं नास्ति चेत्
तदपि अग्रे अग्रे तत्र अग्रे भवति. तद् अग्रे अग्रिमवाक्यं न तदनन्तरं तद् नकार नकार विना वाक्यमपि अपि तदपि अस्ति अग्रे. नरेश् महोदय रघुपति महोदय अग्रे पठतु.
आम् महोदय. कौरवेषु दुष्टाः न सज्जनाः अपि आसन्. कौरवेषु दुष्टाः न सज्जनाः अपि आसन्. उपरि महाभारते केवलं कथा न कथाः न अत्र कौरवेषु दुष्टा दुष्ट
केवलं दुष्टाः. तत्र प्रायशः कौरवेषु केवलं दुष्टाः न इति प्रायशः भवति. नो चेत् तत्र अथवा एव कौरवेषु दुष्टाः एव इति न सज्जनाः अपि सन्ति इति. तत्र प्रायशः तदपि अस्ति इति तद् तादृशरूपमेव भवति इति मन्ये महोदय. दुष्टाः न सज्जनाः अपि आसन्. सर्वे कौरवाः दुष्टाः इति तादृशचिन्तनं मास्तु. तेषु सज्जनाः अपि आसन्. अस्तु सूर्यकुमारी भगिनी अग्रे.
कृष्णः अर्जुनस्य सारथिः अस्ति मित्रमपि.
तत्र मित्रमपि इत्युक्ते किम्?
कृष्णः सारथिः न एव मित्रमपि.
कृष्णः अर्जुनस्य सारथिः अस्ति. कृष्णः अर्जुनस्य मित्रमपि अस्ति. अतः कृष्णः अर्जुनस्य सारथिः अस्ति मित्रमपि. तत्र एतादृशप्रयोगं व्याकरणे बहु प्रसिद्धः अस्ति. तत्र पाणिनेः सूत्रस्य तत्र किमपि नाम अस्ति, कोऽपि रघुपतिमहोदयः स्मरति वा? तत्र एकं सूत्रमस्ति तस्य अर्थस्य अवगमनार्थं पूर्वस्य सूत्रस्य अपि
पूर्वसूत्रस्य
तत्र किमपि अस्ति. तत्र
अनुवर्तनं भवति तत्र.
तत्र किमपि अस्ति, एतत् प्रसिद्धम् अस्ति. तत्र अहमपि इति
रामः
वदति अहम् आपणं गच्छामि, लक्ष्मणः वदति अहमपि इति. तादृशं तत्र मित्रमपि इति. तत्र केवलं सर्वं न वदामः, किन्तु यत् उक्तं तेन वयम् अवगन्तुं शक्नुमः. पूर्वमपि यत् किमपि अस्ति तदपि तत्र तद् आनीतव्यं भवति. तद् अवगन्तव्यं भवति. अस्तु समीचीनं. नरेश् महोदय अग्रे.
अर्जुनः केवलं वामहस्तेन न दक्षिणहस्तेन अपि शरं
प्रयुङ्क्ते. इत्युक्ते किम्?
अर्जुनः वामहस्तेन दक्षिणहस्तेन शरं प्रयुङ्क्ते. केवलं वामहस्तेन न दक्षिणहस्तेन अपि.
सर्वे किं कुर्वन्ति? सर्वे
वामहस्तेन
एव शरं इत्युक्ते किम्? बाणं तस्य तद् प्रयुङ्क्ते, किन्तु अर्जुनः हस्ताभ्यां हस्ताभ्यां शरं प्रयुङ्क्ते इति. अस्तु, तस्य विशेषगुणं तस्य. अस्तु, हा अग्रे बनचितनी महोदय.
योगी कर्म कुर्वन् अपि न लिप्यते. किमर्थं महोदय योगी कर्म कुर्वन्
अपि
कर्म कुर्वन् अपि
कर्म कुर्वन्
न लिप्यते. सः कर्मं करोति किन्तु तत्र तस्य कर्मस्य फलं तत्र न भवति इति, तादृशार्थे इति मन्ये.
लिप्यते
इति अटाच्मेण्ट् अस्ति. लिप्यते इत्युक्ते तत्र संयोगः भवति, तत्र तस्य तद् हा कर्मस्य कर्मं योगिन् तत्र
पूर्वम् अत्र युवकाः बालाः इति
इदानीं अस्तु अस्तु महोदय, अस्तु अस्तु, तत्र किञ्चित् वक्तव्यम् अस्ति. तत्र एतावत् अपि इत्युक्ते किम् आसीत्, आल्सो इति, किन्तु अत्र किम् अस्ति,
इन्स्पैट्
अपि कुर्वन् अपि कुर्वन् अपि बट् अथवा इन्स्पैट्
डिस्पैट्
तादृश डिस्पैट् अपि इवन् दो हि डस् दट् इट् स्टिल् डजन्ट् अटाच् इति. अपि अत्र अर्थभेद अपि इति बहु किमपि कार्यं करोति, तत्र आल्सो इति अर्थः अस्ति, अपि अत्र डिस्पैट् अथवा इन्स्पैट् इति तादृश अर्थः अपि अत्र अस्ति. अनुवृत्ति समीचीनं महोदय, धन्यवादः. पाणिनेः वर्गे एतद् बहु बहुत्र भवति, एतस्य सूत्रस्य अनुवृत्तिः कुत्र, अनुवृत्तिः कुत्र अस्ति इति.
अधिकारापि अनुवृत्ति
इत्युक्ते किं महोदय?
पूर्वसूत्रापि ये शब्दाः आनेतव्यानि तत्र ते रिपीट् न कुर्वन्ति सूत्रे, अनुवृत्तिः भवति.
सूत्रद्वयमस्ति इति चिन्तयतु महोदय, प्रथमसूत्रम् अस्ति, द्वितीयं सूत्रम् अस्ति. द्वितीयसूत्रस्य अवगमनार्थं प्रथमसूत्रस्य अवगमनं तस्य आवश्यकता अपि अस्ति, किन्तु तद् न ते न वदन्ति, किन्तु अनुवृत्तिः अस्ति इति. तत्र किमपि व्याख्या अस्ति चेत् ते वदन्ति अस्तु, तत्र प्रथमसूत्रस्य अनुवृत्तिः द्वितीयसूत्रे अस्ति, अतः द्वितीयसूत्रस्य अवगमने तत्रापि तत्र तस्य अवगमनार्थं प्रसिद्ध उदाहरणम् अस्ति. रामः वदति अहम् आपणं गच्छामि, लक्ष्मणः वदति अहमपि. सः न वदति अहमपि आपणं गच्छामि इति न वदति, केवलं सः वदति अहमपि इति. तत्र वयम् अवगन्तुं शक्नुमः सः किं वक्तुम् इष्टवान्, अहमपि आपणं गन्तुं गच्छामि इति वक्तुम् इष्टवान्, किन्तु सः किम् उक्तवान्, केवलम् अहमपि इति उक्तवान्. अतः तत्र अपि अहमपि इति तत् केवलं मनसि आगतं तत्र, अतः अहम् उक्तवान्. अस्तु अग्रे सूर्यकुमारी भगिनी.
अनुवृत्ति अर्थः आङ्ग्लभाषे
तस्य अनुवृत्तिः नेसेसिटि इति मन्ये, अथवा दट् इस् आल्सो इम्प्लाइड् हियर् इति.
सः गुरुणा अपि दुःखेन न विचाल्यते. सः गुरुणा अपि दुःखेन न विचाल्यते. अहं न अवगतं महोदय.
तत्र विचाल्यते
विचलति इति अस्ति, विचाल्यते
दुःखेन न विचाल्यते कर्मणि प्रयोग.
सः गुरुणा अपि दुःखेन
सः गुरुणा अपि ओ ओ गुरुण सहायेन अपि दुःखं न विसर्जति.
दुःखम् इदानीमपि अनुभवति सः
न विचालयते
विचाल्यते. गुरुणा अपि दुःखेन न विचाल्यते.
गुरुसहायेन अपि
हा तादृश अर्थे इति मन्ये भगिनि.
विचाल्यते इति विचलति नास्ति वा
विचलति इति अस्ति रिमूव् इति अस्ति विचलति किन्तु किन्तु तत्र डिस्पैट् इति तादृश अर्थः अस्ति इति मन्ये खलु.
गुरुणा इति तृतीयाभक्ति न गुरुणा
गुरुणा इति तृतीयविभक्ति किन्तु तत्र दुःखेन इति तृतीयविभक्ति अस्ति. तत्र तयोः मध्ये किं समान इति तादृश नास्ति. गुरुणा अपि दुःखेन न विचाल्यते गुरुणा इति किञ्चित् तत्र परिशीलनीयम् अस्ति. तत्र
कर्मणि प्रयोगः महोदय
गुरुणापि
दुःखेन न विचाल्यते कर्मणि इति भाति विचाल्यते
किन्तु तत्र अस्तु कर्मणि अथवा भावे प्रायशः तत्र
भावे
दुःखेन
भावे एव भवति विचाल्यते.
तत्र सः दुःखेन दुःखम् अस्तु अस्तु एतत् चिन्तयामः अस्तु दुःखं दुःखम् अस्तु 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 तत्र विचलति तम् अस्तु दुःखं दुःखं तं न विचलति विचलति इति तत्र गो अस्ट्रे इति अस्ति. दुःखं तं इत्युक्ते सः इति तस्य पदस्य द्वितीयविभक्तिरूपं कर्मपदं दुःखं विचलति दुःखं किं विचलति दुःखं तं विचलति दुःखं तं विचलति दुःखं तं न विचलति अथवा सः दुःखेन न विचाल्यते
दुःखेन सः न विचाल्यते.
गुरुणापि इति
गुरुणापि इति तद् प्रत्य तत् पृथक् अस्ति. तत्र एतत् कर्तुं शक्नुमः कर्तृरूपं वदामः तत्र कर्तृरूपं किं भवति दुःखं तं गुरुणा अपि तं न विचलति सः गुरुणा अपि अस्ति किन्तु दुःखं तं न विचलति. तत्र किन्तु तादृशव्याकरणस्य तत्र समीचीनमस्ति किन्तु अर्थः सम्यक्तया न प्रायशः तत्र न अभवत् इति मन्ये. अस्तु अग्रिमवर्गे एतत् किञ्चित् चिन्तयित्वा तदपि अन्तिमवाक्यं किम् अस्ति तत्र साङ्ख्यैः यत् प्राप्यते
तैः
अपि तत् गम्यते अस्तु तत् प्राशे अवगन्तुं शक्नुमः अस्तु 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 अतः एतद् गृहपाठम् इति स्वीकृत्य तत्र सः गुरुणा अपि दुःखेन न विचाल्यते इति तस्य वाक्यस्य अर्थः कः इति सः एव गृहपाठः सर्वं चिन्तयित्वा चर्चां कुर्मः समीचीनमेव अस्ति अपि इति पदस्य अर्थः कीदृशः इति ज्ञातुं शक्नुमः अस्तु तर्हि अन्य प्रश्नः अस्ति वा अस्तु अस्तु नमस्कारः सर्वेभ्यो नमः अग्रिमे मिलामः नमस्कारः
धन्यवादः
महोदय हरि ओम्
महोदय।